एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वोच्च न्यायालयेन पूर्व सभामुखस्य नेकपा माओवादी केन्द्रस्य उपाध्यक्षस्य च अग्निप्रसाद सापकोटा विदस्य विरूद्धे व्यक्तिहत्याया न्यायिक प्रकरणे अनुसन्धानम् अग्रे वर्धयितुम् आदिष्टमस्ति। प्रधान न्यायाधीशेन प्रकाश मानसिंह राउत इत्यनेन सहितानां सपना प्रधान मल्ल, कुमार रेग्मी, डाक्टर मनोज कुमार शर्मा, डाक्टर कुमार चुडाल इत्येतेषां न्यायाधीशानां न्यायपीठेन पूर्वसभामुखस्य सापकोटा विदस्य विरूद्धे काभ्रे जनपदस्य अर्जुन लामा विदस्य अपहरणस्य हत्यायाश्च प्रकरणे अनुसन्धानम् अग्रे वर्धयितुम् आदिष्टम् वर्तते। द्वादश वर्षेभ्य सर्वोच्च न्यायालये विचाराधीन न्यायिक प्रकरणे यः सर्वोच्चस्य सांविधानिक न्यायपीठेन उत्प्रेषणादेशस्य प्रदानस्य पश्चात् सापकोटा विदेन सहितानां पूर्वोर्ज मन्त्रिणः काभ्रे जनपदस्य माओवादी केन्द्रस्य सांसदस्य सूर्यमान दोङ इत्यस्य च विरूद्धे अनुसन्धानं जायमानं वर्तते। राष्ट्रियसभायाः ह्यस्तनोपवेशे आगामिनः आर्थिक वर्षस्य राजस्वस्य व्ययस्य च वार्षिकम् अनुमानमाधृत्य सामान्यं विमर्शनं प्रारब्धमस्ति। उपवेशे उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः आगामिनः आर्थिक वर्षस्य कृते राजस्वस्य व्ययस्य च वार्षिकम् अनुमानमाधृत्य विमृश्यतामिति निगद्य प्रस्तावं प्रस्तुवन् आयव्ययकं यथार्थपरकं क्रियान्वयन योग्यं च वर्तते इति प्रावोचत्। अर्थमन्त्री पौडेलः आयव्ययकस्य क्रियान्वयनेन आर्थिक गतिविधयः विस्तारिताः भविष्यन्ति, निजक्षेत्रस्य निवेशे वृद्धिं भविष्यति, वृत्त्युपार्जनस्य अवसराः उपलप्स्यन्ते, पूर्वाधार योजनासु यथासमयं सम्पन्नासु सतिषु आर्थिकवर्षस्य अन्त्यं यावत् प्रतिशतं षड् अंकात्मिकाम् आर्थिकी वृद्धि भविष्यति इति अनुमितं वर्तते इति अवदत्। अर्थमन्त्री पौडेलः आयव्ययके केचन महत्वपूर्णाः नीतिगत सुधार उपायाः प्रस्ताविताः सन्ति, विकासाय वैकल्पिक वित्त व्यवस्थापनस्य चिन्तने बलं दत्तमस्तीति च उदैरयत्। उपवेशे आगामिनः आर्थिक वर्षस्य राजस्वस्य व्ययस्य च वार्षिकम् अनुमानमाधृत्य विहिते विमर्शने भागं गृह्णन्तः सत्तारूढानां दलानां सांसदः देशस्य सम्पत्शुद्धिकरणस्य अनुगमने पतनस्य कारणं त्रुटिश्च निश्चित्य आर्थिक सुशासनं विधातुं यथार्थम् आयव्ययकं प्रस्तुतमस्ति इति अवदन्। प्रतिपक्षिदलानां सांसदाः अपेक्षायाः अनुसारेण आयव्ययकं न प्रस्तुतमस्तीत्यतः जनतायां नैराश्यमागतमस्ति, सामाजिक न्यायस्य सुशासनस्य समृद्धेश्च अनुकूलम् आयव्ययकं न प्रस्तुतमस्ति इति उक्तवन्तः। राष्ट्रियसभाया अपरोपवेशः अद्य दिवासपादैक वादनाय सपादैकवादने वसति। पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणस्य विषयमाधृत्य अवरुद्ध प्रतिनिधिसभायाः उपवेशः ह्योऽपि नावसत्। सूचनां प्रकाश्य अद्य दिवा एकवादनाय निर्धार्य प्रतिनिधिसभाया ह्यस्तनोपवेशः स्थगितीकृतः आसीत्। ह्यः प्रकरणमेतद् आधृत्य सत्तापक्षस्य प्रतिपक्षस्य च स्वस्याम् एव याचनायां स्थिरीभवनानन्तरं पूर्वं दिवा त्रिवादनं यावत् पूर्वम् उपवेशः स्थगितीकृतः। पुनरपि उपवेशनस्य कृते अनुकूलवातावरणस्य सर्जनस्य अभावानन्तरं सूचनां प्रकाश्य उपवेशः अद्यतनदिवसाय निर्धारितः आसीत्। तन्मध्ये ह्योऽपि सभामुखेन देवराज घिमिरेभिदेन उपवेशस्य सञ्चालनाय अनुकूलं वातावरणं निर्मातुं सत्तापक्षस्य प्रतिपक्षस्य च प्रमुखसचेतकपदीयै सचेतकपदीयैश्च सह भूयो भूयो विमर्शनं विहितमासीत्। सर्वकारेण पत्राचार सेवायाः गोर्खापत्रस्य राष्ट्रिय समाचार समितेः मार्गसुरक्षायाश्च विषये व्यवस्थातुं निर्मिताय विधेयकाय सैद्धान्तिकी स्वीकृतिः प्रदत्ता अस्ति। ज्येष्ठमासस्य पञ्चदशे दिवसे ऊनविंशे दिवसे च उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ एतद् विक्रमवर्षीया मूल्याभिवृद्धि कर सम्बद्धाम् सप्तविंशतितमाम् संशोधन नियमावलिम् एतत् विक्रमवर्षीयाम् अन्तः शुल्क सम्बद्धाम् सप्तविंशतितमाम् संशोधन नियमावलिम् एतत् विक्रमवर्षीयाम् सीम प्रवेश शुल्क सम्बद्धाम् षोडशीम् संशोधन नियमावलिम् च स्वीकर्तुम् तत्सम्बन्धिनीम् सूचनाम् राजपत्रे प्रकाशयितुम् च निर्णीतमस्ति इति असूचयत्। पत्रकार सम्मेलने संचार मन्त्री गुरूङ पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणे प्रतिपक्षिभि दलै उत्थापितेष् विषयेष् संसदि गृहमन्त्रिणा प्रत्युत्तरस्य अवसर प्राप्तव्य इति चर्चयन् दलेष् विमर्शनं जायमानमस्तीत्यतः शीघ्रमेव समस्याया समाधानं भविष्यति इति अगतत्। प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षं निर्यात व्यवसायी महासंघ नेपालेन निर्याते वृद्धिं विधाय राष्ट्रिय वित्तराशि निर्माणाय वृत्त्युपार्जनाय आयातस्य न्यूनीकरणाय च विभिन्नाः परामर्शाः प्रस्तुताः सन्ति। महासंघस्य नवनिर्वाचितेन पदाधिकारिणां समूहेन बालुवाटारवर्तिने प्रधानमन्त्री निवासे प्रदत्तं परामर्शपत्रं गृह्णन् प्रधानमन्त्री ओली वर्तमान परिस्थितौ निर्यात व्यवसायीभ्य यद्यप्यधिकं प्रोत्साहनं दातुं न शक्यते तथापि संभवे व्यावहारिके विकल्पे च संयुक्तरूपेण कार्यं विधातुम् अनुरुणात्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा भाषते दलीय व्यवस्थायां दलानां समावेशिनां सम्पादनस्य पश्चादेव राज्यस्य अन्य संरचना समावेशिन्यः भवितुम् अर्हन्ति। राष्ट्रिय समता दिवसस्य स्पृश्यास्पृश्य मुक्त राष्ट्र घोषणायाः सन्दर्भे च नेपाली कांग्रेस दलस्य दलित समुदाय समन्वय सशक्तिकरण विभागेन ह्य सानेपा वर्तिनी दल केन्द्रीय कार्यालये आयोजिते कार्यक्रमे सभापतिः देउवा निरंकुश शासन व्यवस्थायां दलित समुदायेन षोडव्यानां भेदभावानां विरूद्धस्य विषयस्य उत्थापकं प्रथमं दलं कांग्रेस दलम् अस्ति इति न्यश्चिनोत्। कर्णाली प्रदेश सर्वकारेण आगामिनः आर्थिक वर्षस्य कृते नीति कार्यक्रमः सार्वजनीकृतः वर्तन्ते। कर्णाली प्रदेशस्य प्रमुख यज्ञराज जोशी उपचारस्य कृते अमेरिका देशं प्रति गतवान् अस्तीत्यतः कर्णाली प्रदेशसभायाः ह्यस्तनोपवेशे सुदूर पश्चिम प्रदेशस्य प्रमुख नजीर मिया कर्णाली प्रदेश सर्वकारस्य नीति कार्यक्रमान् प्रस्तौत। कर्णाली प्रदेशस्य पूर्वाधार विकासेन सहैव शिक्षां स्वास्थ्यं कृषि पर्यटनं वनौषधानां प्रवर्धनं दशमं राष्ट्रिय खेलकूद प्रतियोगितां च संचालयितुं खेलकूद व्यवस्थापनं च प्राथमिकतायां संस्थाप्य अष्टादशोत्तरैकशतसूत्रात्मका नीति कार्यक्रमा प्रस्तुता सन्ति। गृहमन्त्री रमेश लेखकः निगदति पर्यटनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणस्य विषये संसदि एव प्रत्युत्तरं प्रदीयते। राज्यव्यवस्था सुशासन समितेः ह्यस्तनोपवेशे गृहमन्त्री लेखकः समितौ प्रत्युत्तरं प्रदानेन सर्वे सांसदाः प्रत्युत्तरं श्रोतुं न प्रभवन्तीत्यतः संसदि एव प्रत्युत्तरस्य प्रदानस्य व्यवस्थां विधातुं समितेः सदस्यानां समक्षम् अनुरुद्धवान्। हेटौडा काष्ठमण्डप योजकः कान्ति राजमार्गः ह्यस्तनात् दिवसात् चतुर्भ्य दिवसेभ्य पूर्णरूपेण पिहितोऽस्ति। बगुआ बागमती खोलिकायां निर्माणाधीनस्य सेतोः निर्माणकार्यं समापनीयमस्तीत्यतः ह्यस्तनात् दिवसात् अस्यैव ज्येष्ठमासस्य चतुर्विंशं दिवसं यावद् अस्मिन् मार्गे यातायात साधनानि पूर्णरूपेण निषिद्धानि सन्ति इति ज्ञापितं वर्तते।